गणानान्त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोतैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातैष शिवतमा शिवम् बभूवते धनुः शिवा शरव्याय तवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोर पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशम् तहस्ते विवश्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् आयेगश्च सर्वान् जम्भयन् सर्वाश्चयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्वमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेडयीमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्रियोर्ज्याम् याश्च ते हस्तैषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशते शुधे निषीर्य शल्यानाम् मुखा शिवो न सुमना भवा विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाथताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्नृणक्तु विश्वतः अथो यिषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अत्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय
देवन्
महादेवाय नमः। नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः। सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो। बभ्लुषाय विद्याधिरेन्द्रानां पतये नमो नमो। हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो। भवस्य हेत्यै जगतां पतये नमो नमो। रुद्राय तताविने क्षेत्राणां पतये नमो नमः। सूताय हन्त्याय वनानां पतये नमो नमो। रोहिताय तपतये वृक्षाणां पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो। भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम। उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम। कृत्स्नवीताय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः। ककुभाय निषङ्गिने स्तेनानां पतये नमो नमो। निषङ्गिन इषु धिमते तस्कराणां पतये नमो नमो। वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो। निचेरवे परिचरायारण्यानां पतये नमो नमः। श्रिकाविभ्यो जिघागुं सद्भ्यो मुष्णतां पतये नमो नमो। सिमद्भ्यो नक्कञ्चरभ्यः प्रकृन्दानां पतये नमो नम। उष्णेशे गिरिचराय कुलुञ्चानां पतये नमो नम। इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो। स्यद्भ्यो विद्यद्भ्यश्च वो नमो नम। आसीनेभ्य शयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम। स्तिष्ठद्भ्यो धावभ्यश्च वो नमो नम। सभाभ्यस्तवापदेभ्यश्च वो नमो नमो। अश्वेभ्यो अश्वपदेभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम। उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो। घृत्सेभ्यो घृत्सपदेभ्यश्च वो नमो नमो। व्रातेभ्यो व्रातपतेभ्यश्च वो नमो नमो। गणेभ्यो गणपतेभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रथेभ्यो रथेभ्यश्च वो नमो नमो। रथेभ्यो रथपतेभ्यश्च वो नमो नमः। सेनाभ्यः सेनानिभ्यश्च वो नमो नमः। क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः। रक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः। कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः। पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुक्रद्भ्यो धन्वकृभ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नम स्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेढुष्टमाय चेक्षुमते च नमो अस्वाय च वामनाय च नमो बृहते च वर्षेयते च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शीघ्राय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो रष्टवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमस्ते शेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः शक्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः श्रोत्याय च सरस्याय च नमो नाद्याय च वैक्षन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेध्याय च विद्युत्याय च नमः ेन्द्रियाय चातप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नम शम्भवे च मयो भवे च नम शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेऽध्याय च कोल्याय च नमः पार्याय च वाद्याय च नमः प्रचरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च वेद्याय च नमः शिकक्याय च प्रवाह्याय च नम इरिण्याय च प्रवक्याय च नमः किगुंशिराय च क्षयणाय च नमः कवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेयाय च नम काष्ठ्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नम पारुं सव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नम पण्याय च पर्णशद्याय च नमो पगुरमानाय च विघ्नते च नम आखिदते च प्रखिदते च नमो वक्किणिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आविवक्केभ्यः द्रापे अन्धसत्पते दरिद्रं नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मारोमो येषाम् किञ्च नाम मत् याते रुद्र शिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृणजीवसे हिमागुम् रुद्राय तवसे कवर्दिने क्षयद्वेराय प्रभरामहे मतिम् यदा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रो तनो मयस्कृधि क्षयद्वेराय नमसा विधेमते यच्चन्त्ययोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्वकम् मान उक्षन्तमुतमान उक्षितम् मानो वरे पितरम् मोतमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्अविष्मन्तो नमसा विधेमते आराते गोग्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधिच देव ब्रूह्यधा च न शर्म यच्च निवर्हाः सुविश्रुतम् गर्त सदयुवानम् मृगन्न भीममुपहत्वमुग्रम् मृणा चरित्रेण रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य रेतिर्वृणक्तु परित्वेषस्य दुर्मतिरगायोः अवस्थिरा मघवद्भ्यस्तनुष्वमीघस्तोकायतनयाय मृडया मेडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्यम् वसा न आचर पिनाकम् बिभ्रदागहि विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयो न्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृधि सहस्राणि सहस्रशो ये रुद्र हरिभूम्याम् एषागुम् सहस्रयो जने वदन्वानि तन्मसे अस्मिन्महत्यन्नवेऽन्तरिक्षे भवा अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्तेऽञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्कपर्दिनः ये अन्ने सुविविद्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति सुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुंसहस्रयो जने वधन्वानि तन्वसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतिचीर्दशोदिचीर्दशोर्धास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विश्वो यश्च नो वेष्टितम् वोचम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृदात् यो रुद्रो अग्नौ यो अप्सुर ओषधीषु यो रुद्रो विश्वभुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रवयुतम् पाशा मृत्योमर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो माभिशान्तकः तेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यः शिशुः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः नुम्नैर्वाचे पिरागतम् वाजश्च मे प्रलवश्च मे प्रयतिश्च मे प्रदितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च म आदितम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे तानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्योश्च मे भामश्च मेमश्च मेम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सोक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपतम् च मरुध्वम् च मरुद्भिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे प्रवीणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे चोश्च मे प्रचोश्च मे क्षीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे रामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओच्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्निश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे महु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे स्वच्च मे देहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्दाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नैवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे चिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रभुश्च मे श्यामं च मे लोहं च मे अग्निश्च महावश्च मे वेरुधश्च मौषधयश्च मे कृष्णवत्यं च मे कृष्णवत्यं च मे राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे स्पृष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्रिणौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेन्दरिक्षं च म इन्द्रश्च मे द्योश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे निपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वा नरश्च मरुतो ग्रहाश्च मेति राह्याश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे आर्योजनश्च मे हिद्मश्च मे बर्हिश्च मे वेदश्च मे दृष्ट्याश्च मे शुचश्च मे चमसाश्च मे द्रावाणश्च मे स्वरवश्च म उपरवाश्च मे ऋषवने च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृच्च म आद्रवणीयश्च म आग्नेयेर्धं च मे अविधानं च मे ग्रहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे ववृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे चौर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्य मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्दन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च म उक्षा च मे वशा च मरुषवश्च मे देहञ्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे अष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षत्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टा चत्वारिगुंसच्च मे वाजश्च प्रसवश्च विजश्च क्रतुश्च सुवश्च मोद्धा च व्यस्तयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादे भवोर्मनुर्यज्ञनी बृहस्पतिरुक्त मदानिषगुंसि षद्विश्वे नेवासोक्तवाच पृथिवीमा चर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवरिष्यामि मधुमतीम् नेवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोवाय पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागुं राजा अप्येषागुस्थपतिर्हतः अथो माताथो पिता अथो स्थूला अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्व्रसे ॐ शान्ति शान्ति शान्तिः ॐ योपां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति योऽग्निरायतनम् वेद आयतनवान् भवति आपो वा अग्निरायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति यो मुष्यतपथ आयतनम् वेद आयतनवान् भवति आपो वा अमुष्यतपथ आयतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् ayatanavān bhavate ya evam veda yopam ayatanam veda ayatanavān bhavate parjanyova apam ayatanam ayatanavān bhavate ya parjanyasya ayatanam veda ayatanavān bhavate āpo vai parjanyasya ayatanam ayatanavān bhavate ya evam veda yopam ayatanam veda ayatanavān bhavate samvatsaro va apam ayatanam ayatanavān bhavate yas samvatsarasya ayatanam veda ayatanavān bhavate āpo vai samvatsarasya ayatanam ayatanavān bhavate ya evam veda yopsunavam pratishthitam veda pratyeva tishthate rajadirajaya prasaya sahine namo vayam vai shravanaya kurmahe same kaman kama kamaya mahyam kameshwaro vai shravano dadatu kuberaya vai shravanaya maharajaya namaha om shanti 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 purushasya vidmasaha sakshasya mahadevasya dhimahi tanno rudra prachodayat tat purushaya vidmahe mahadevaya dhimahi tanno rudra prachodayat tat purushaya vidmahe vakratundaya dhimahi tanno dantih prachodayat tat purushaya vidmahe chakratundaya dhimahi tanno dantih prachodayat tat purushaya vidmahe mahasenaya dhimahi tanna shanmukha prachodayat tat purushaya vidmahe suvarna pakshaya dhimahi tanno garuda prachodayat vedatmanaya vidmahe hiranya garbhaya dhimahi tanno brahma prachodayat narayanaya vidmahe vasudevaya dhimahi tanno vishnu prachodayat vajranakaya vidmahe tikshnadagrushtraya dhimahi tanno narasigumha prachodayat bhaskaraya vidmahe mahadyutikaraya dhimahi tanno aditya prachodayat vaishvanaraya vidmahe lalilaya dhimahi tanno agni prachodayat katyayanaya vidmahe kanyakumari dhimahi tanno durge prachodayat om saishwaraya vidmahe satyadevaya dhimahi tanna sarva prachodayat svasti prajabhya paripalayantam nyayena margena mahim mahishah gobrahmanebhya shubhamastu nityam samasta lokah sukhino bhavantu samasta lokah sukhino bhavantu samasta lokah sukhino bhavantu om shanti shanti shanti